द्वासप्तति तमस्य वार्षिकोत्सवस्य अवसरे रेडियो नेपालः सकल श्रोतृन् विज्ञापन दातृन् शुभेच्छुकांश प्रति हार्दम आभारम अभिव्यज्य आगामी दिनेषु स्वस्य प्रसारणम् इतोऽपि प्रभावकारी समावेशी वैविध्यपूर्णं च विधातुं प्रतिजानीते। एष रेडियो नेपालः। सम्प्रति समाचाराः श्रूयन्ताम्। प्रवाचकः चन्द्रकान्त पौडेलः। नेपाल भारतयोर्मध्ये ऊर्जा इन्धन रेलयान सेवा सञ्जाल विस्तार प्रवृत्तिषु पारस्परिक सहयोग सहकार्य सम्बद्धेषु चतुर्षु सहमति पत्रेषु हस्ताक्षरं सम्पन्नं वर्तते। भारतस्य औपचारिक भ्रमणे विद्यमानस्य प्रधानमन्त्रिणः शेरबहादुर देउवाभिधस्य भारतस्य प्रधानमन्त्रिणः नरेन्द्र मोदिनश्च नेतृत्वस्य प्रतिनिधिमण्डलयोर्मध्ये दिल्लीस्थिते हैदराबाद हाउस भवने विहितां वार्ताम् अनु ह्यः एतेषु सहमति पत्रेषु हस्ताक्षरणं सम्पन्नमस्ति। सहमति पत्रेषु अन्तर्राष्ट्रिय सौर्योर्जा सम्बद्धे सहकार्ये नेपालस्य औपचारिक रूपेण सहभागिता, नेपालस्य रेलयान मार्ग क्षेत्रे भारतीय प्राविधिक सहयोग, शिला तैलीय क्षेत्रे सहयोग, नेपाल तैल निगम भारतीय तैल निगमयोर्मध्ये विशेषज्ञानां आदान प्रदानं चेति विषया उल्लिखिता सन्ति। गतदिने एव देशद्वयस्यैव प्रधानमन्त्रिणो कुर्था जयनगर यात्रीवाहक रेलयान सेवाया ध्वजोत्तोलन पुरस्सरं शुभारम्भं कृत्वा नेपाले प्रयोगाय भारतस्य रूपे डिजिटल कार्ड इत्याख्यां वैद्युताङ्कन युतां पट्टिकां सार्वजनीकृतवन्तौ। प्रधानमन्त्री देउवा, प्रधानमन्त्री मोदी च सोलु पारेन्तिक द्वात्रिंशदधिक शत किलो भोल्ट परिमित प्रसारण प्रणालीं च संयुक्त रूपेण उद्घाटयताम्। प्रसारण प्रणालीयं भारत सर्वकारस्य अब्जत्रयस्य विंशतिः कोटीनां च रूप्यकाणां ऋण सहयोगेन निर्मिता वर्तते। देशद्वयस्यैव प्रधानमन्त्रिभ्यां विहित नेतृत्वां प्रतिनिधिमण्डल स्तरीयां द्विपक्षीय वार्ताम् अनु नया दिल्ली स्थिते हैदराबाद हाउस भवने आयोजिते पत्रकार सम्मेलने प्रधानमन्त्री शेरबहादुर देउवा अवदत् नेपाल भारतयोः सम्बन्धः घनिष्ठः मैत्रीपूर्णश्च वर्तते। प्रधानमन्त्री देउवा, भारतेन सह नेपालस्य सम्बन्धः अतिमहत्वपूर्णोऽस्तीति भासमाणः प्रधानमन्त्रिणो मोदिनो दूरदर्शी नेतृत्वे भारतेन विहितां प्रगतिं प्राशंसत्। कोविड उनविंशतेः महामार्याः नियन्त्रणाय भारतेन विहितं प्रभावकारी व्यवस्थापनं प्रशंसन् प्रधानमन्त्री देउवा, महामारी विरोधिनि नेपालस्य युद्धे भारतेन प्रथम टीकाकरण सहायतया सह प्रदत्तानि औषध चिकित्सोपकरणानि आलक्ष्य भारतं प्रति हार्दम् आभारम् अभिव्यनक्। पत्रकार सम्मेलने भारतस्य प्रधानमन्त्री नरेन्द्र मोदी अवासत भारत नेपालयोः सम्बन्धः आविश्वम् अनुपमोदाहरणस्य रूपेण विकस्यमानो वर्तते। प्रधानमन्त्री मोदी भारत नेपालयोः सभ्यतायाः संस्कृतेः पारस्परिक सम्बन्धस्य च आदान प्रदानस्य सूत्रं प्राचीन कालात् सम्पृक्तमस्तीति चर्चयन् अकथयत् अनादिकालात् नेपाल भारतदेशौ परस्परं सुखदुःखयोर्मित्रे विद्येते। तत्पूर्वं भारतस्य औपचारिक भ्रमणे विद्यमानस्य प्रधानमन्त्रिणः शेरबहादुर देउवाभिधस्य एतदीय भारतीय समकक्षिणो नरेन्द्र मोदिनश्च मध्ये हैदराबाद हाउस भवने मेलवार्ता सम्पन्ना आसीत्। प्रधानमन्त्री शेरबहादुर देउवा राजघाटस्थितं महात्मा गान्धिनः समाधिस्थलम् एत्य तत्र हार्दं श्रद्धाञ्जलिम् आर्पयत्। भारत भ्रमणे विद्यमानस्य प्रधानमन्त्रिणः शेरबहादुर देउवाभिधस्य सम्माने भारतस्य प्रधानमन्त्रिणा नरेन्द्र मोदिना दिवाभोजः आयोजितः आसीत्। भारतस्य प्रधानमन्त्री नरेन्द्र मोदी भाषते भारत नेपालयोः सम्बन्धस्य सर्वेष् विषयेष् प्रतिनिधिमण्डलस्तरीय वार्तायां विमर्शनस्य समीक्षायाश्च अनन्तरं ऊर्जसः क्षेत्रे सहकार्याय देशद्वयमेव सहमतम् अस्ति। दशकद्वयेन गतिहीनां पञ्चेश्वर बहुद्देशीय परियोजनां द्रुतगत्या अग्रे वर्धयितुं प्रधानमन्त्री मोदी प्रतिबद्धतां व्यक्तवान्। प्रधानमन्त्री मोदी अगदत् नेपाले उत्पादितायाः विद्युतः क्रयणाय स्वच्छोर्जसः प्रवर्धने सहयोगाय नेपालेन षोडभ्यां व्यापार हानिं न्यूनीकर्तुं च आवश्यक प्रयासो विधीयते। भारत नेपालयोः उन्मुक्त क्षेम क्षेत्रस्य दुरूपयोगो न भवतु इत्यत्र आत्मनां सचेष्टतास्ति। एतत् सम्बन्धे आत्मभिः विमृष्टमिति प्रधानमन्त्री मोदी अज्ञापयत्। प्रधानमन्त्री मोदी अकथयत् धार्मिक पर्यटनस्य प्रवर्धनाय रामायण परिपथस्य विकासाय नेपालगंजस्थाने एकीकृत परीक्षण केन्द्रस्य निर्माणाय नेपाल प्रहरी समयानुकूल प्रशिक्षण प्रदानार्थं प्रहरी प्रशिक्षण प्रतिष्ठानस्य निर्माणाय च भारत नेपालयोः सहकार्यं भविष्यति। धनुषा जनपदस्य कुर्थास्थानात् भारतस्य जयनगरं यावत् ह्यस्तन दिवसात् नियमित रेलयान सेवा प्रारब्धा वर्तते। भारतस्य भ्रमणरतेन प्रधानमन्त्रिणा शेरबहादुर देउवाभिधेन भारतस्य प्रधानमन्त्रिणा नरेन्द्र मोदिना च संयुक्त रूपेण ध्वजोत्तोलनं विधाय विहितस्य उद्घाटनस्य अनन्तरं रेलयान सेवेयं प्रारब्धा वर्तते। राष्ट्रपति विद्यादेवी भण्डारी जनसहभागितायां जलस्रोतसाम् उपयोगं विधाय समृद्धेः मार्गे अग्रे वर्धितुं बलं ददाति। हिमालयन हाइड्रो एक्सपो नामिकां मेलां ह्यः काष्ठमण्डपे उद्घाटयन्ती राष्ट्रपतिः भण्डारी ऊर्जा क्षेत्रस्य विकासाय विस्ताराय च नैजक क्षेत्रेण निर्विडा भूमिका प्रशंसनीया वर्तते इति अवासत। राष्ट्रपति भण्डारी प्रत्येकं गृहेष् महानसेष् च विद्युत् प्राप्ते वातावरणं स्रष्टुं सर्वेषां सार्थक प्रयासस्य आवश्यकतां प्रादर्शयत्। कार्यक्रमे वन वातावरण मन्त्री रामसहाय प्रसाद यादव अवासत देशं आत्मनिर्भरं विधातुं विधिगतेष् नीतिगतेष् संरचनागतेष् च क्षेत्रेष् विधातव्याय सुधाराय मन्त्रालय तत्परो वर्तते। नेपाली कांग्रेस दलेन स्थानीय स्तराणां निर्वाचने दलस्य पक्षे जनमतं वर्धयितुं वडा क्षेत्रस्तरं यावत् प्रचार संयन्त्रस्य संघटनाय निर्णीतं वर्तते। दलस्य केन्द्रीय प्रचार प्रसार समितेः उपवेशे संयोजक डाक्टर प्रकाशरण महत प्रदेश जनपद क्षेत्रीय प्रदेश सभा क्षेत्रीय ग्राम नगर वडा स्थानीय समितिष् आवश्यकताया अनुसारेण प्रचार संयन्त्रस्य संघटनं विधास्यते इति ज्ञापितवान्। गृहमन्त्री बालकृष्ण खाँड शिला तैलीय पदार्थानाम् आपूर्तौ उत्पन्नाम् समस्याम् तत्कालम् समाधातुम् सम्बद्ध निकाया निर्दिशति। गृहमन्त्रिणा खाँड इत्यनेन आपूर्ति सचिव डाक्टर गणेश प्रसाद पाण्डे, नेपाल तैल निगमस्य कार्यवाहक महानिर्देशक वीरेन्द्र गोइत, नेपाल पेट्रोलियम डिलर्स एसोसिएशन संघस्य महासचिव विश्व अर्यालश्च तत्कालम् समस्याम् समाधातुम् निर्दिष्टाः सन्ति। अत्रान्तरे नेपाल तैल निगमस्य आन्दोलनरताया राष्ट्रिय शिला तैलीय व्यवसाय संस्था गत समन्वय समितेश्च मध्ये शिला तैलीय पदार्थानां विक्री वितरणं सहजं विधातुं सहमति धृतास्ति। निगमस्य टेकुवर्तिनी केन्द्रीय कार्यालये ह्यः सम्पन्ने विमर्शने उभयोर्पक्षयोर्मध्ये सहमति धृतास्ति। विमर्शनेन शिला तैलीय विक्रेत्री लाभेन पाचनेन्धन परिवहन शुल्क समायोजनेन च सम्बद्धायाः याचनायाः सम्बन्धे सप्ताहनां दिनानाम् अभ्यन्तरे उचितं निष्कर्षं प्राप्तुं शिला तैलीय व्यवसायेन सम्बद्धानाम् अन्येषां याचनानां सम्बन्धे आगामिनो ज्येष्ठ मासस्य पञ्चदश दिवसस्य अभ्यन्तरे निर्णेतुं च सहमति धृतेति निगमस्य प्रवक्ता विनीतमणि उपाध्यायः ज्ञापितवान्। सहैव आन्दोलनरतैः नेपाल पेट्रोलियम डिलर्स राष्ट्रिय एसोसिएशन संघेन, नेपाल पाचनेन्धनोद्योग संघेन, नेपाल शिला तैलीय पदार्थ परिवहन व्यवसायी महासंघेन च सार्वजनिकृतान् विरोधस्य सर्वान् कार्यक्रमान् तत्कालं स्थगयित्वा शिला तैलीय पदार्थानां पाचनेन्धनस्य परिवहन सेवां विक्री वितरणञ्च यथावत् संचालयितुं सहमति धृतास्ति। नेपाली कांग्रेस दलस्य वरिष्ठ नेता रामचन्द्र पौडेलः कथयति स्थानीय स्तराणां निर्वाचने आवश्यकतायाः अनुसारेण गठबन्धनं भविष्यति। ह्यः चितवन जनपदे पत्रकारैः सह भाषमाणः वरिष्ठ नेता पौडेलः अकथयत् वडा क्षेत्रस्तराणां पालिकानां च विषये केन्द्रेण हस्तक्षेपो न विधीयते, प्रतिगमनात् रक्षितुं परिवर्तनस्य संरक्षणाय च गठबन्धनम् आवश्यकं वर्तते। संचार सूचना प्रविधि मन्त्री ज्ञानेन्द्र बहादुर कार्की कथयति देशस्य समग्र विकासाय स्थानीय स्तराणां निर्वाचनं नेपाली कांग्रेस दलेन जेतव्यम्। सुनसरी जनपदस्य वराह क्षेत्र नगरपालिकायां ह्यः प्रतिगृहं गच्छाम कांग्रेस दलं जापयामेति अभियानं सम्बोधयन् मन्त्री कार्की शिक्षायां स्वास्थ्ये मार्ग पूर्वाधार निर्माणे विद्युत सेवा विस्तारे मठ मन्दिराणां निर्माणे च आत्मना यथाशक्ति प्रयास विधीयमानोऽस्तीति अगदत्। नगरीय विकास मन्त्री रामकुमारी झाँक्री कथयति लोकतन्त्रम् उचित दिशि अग्रे प्रवर्ध्य संविधानस्य क्रियान्वयनाय वर्तमान गठबन्धनस्य आवश्यकता वर्तते इति समाचाराः।